वन्दे संस्कृतमातरम् संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् वन्दे संस्कृतमातरम्। नमस्कारः। प्रस्तुत प्रसङ्गः सर्वैः श्रूयते खलु?
श्रूयते भगिनि।
इन्द्रजित् हनुमन्तं रावणसभां नयति स्म। तत्र हनुमान् रावणं विस्मयान्वितः सन् पश्यति। रावणः अपि एतं विस्मयान्वितः भूत्वा पश्यति इति अद्यतनप्रसङ्गः। प्रथमम् आदौ किञ्चित् पुनस्मारणं कृत्वा अग्रे सरामः। सोऽयं ददर्श सर्वे अपि पठितुम् अर्हन्ति मया सह। सोऽयं ददर्श दशकन्ध दशकन्धरमन्धकारि लीलाद्रितोलनपरीक्षितबाहुवीर्यं बन्दीकृतेन्द्रपुरवारवधूकराग्रव्याधूतचामरमरुच्चलितोत्तरीयम्। सः अयं हनुमान् यः ब्रह्मास्त्रेण बद्धः, पुनः इतरसूत्रैः राक्षसैः बद्धः इति कारणेन ब्रह्मास्त्रं तस्य ब्रह्मास्त्रात् सः मुक्तः अभवत्, तथापि बद्धः इव व्यवहरन् सः गतवान् राक्षसैः सह। कुत्र गतवान्? रावणसभां गतवान्। तत्र सः ददर्श दृष्टवान्, दशकन्धरात् दरं दृष्टवान्। कीदृशदशकन्धरं दृष्टवान्? यः लीलया कैलासमेव उत्थापितवान् स्वकरयोः, तादृशं दशाननं दृष्टवान्। पुनः तं परितः याः स्वर्गलोककन्याः आसन् ताः चामरं वीजयन्ति स्म, तेन वायुः वाति स्म, तेन वायुना तस्य उत्तरीयं कम्पते स्म, तादृशं दशकन्धरं दृष्टवान् हनुमान्। विस्मयेन दृष्टवान् इति भाव। अग्रे अग्रिमं श्लोकं पश्यामः। अग्रिमे श्लोके रावणस्य गात्रवर्णनं किञ्चित् अस्ति। आपाटलाधरपुटान्तविराजमानदंष्ट्रामहः प्रसरशार शारीरकान्तिं सन्ध्याम्बुदान्तरितमध्यसुधामयूखरेखाभिराममिव वासवनीलशैलम्। समुद्रे यदा चन्द्रोदयः भवति, समुद्रे प्रतितरङ्गं चन्द्रस्य कला प्रकाशते, शोभते च प्रतिबिम्बतया, तथैव रावणस्य मुखमपि। रावणस्य मुखे या दन्तपङ्क्तिः अस्ति, अधरोष्ठः अस्ति, तस्य वर्णनम् अत्र करोति कविः। तथैव अग्रिमश्लोके रावणः रावणस्य युद्धपराक्रमविषये, पूर्वतनश्लोकः रावणस्य दृढगात्रता सूचयति। अत्र रावणस्य पराक्रमः संग्रामकेलिपरिघट्टनभग्नमग्नदिग्दन्तिदन्तकृतमुद्र भुजान्तरालम् छायात्मना प्रतितरङ्गविराजमानशीतांशुमण्ड शीतांशुमण्डलसनाथमिवाम्बुराशिम्। सः देवताभिस्सह यदा युद्धं करोति स्म तदा दिग्गजाः तस्य वक्षसि प्रहरन्ति। केन प्रहरन्ति इत्युक्ते गजदन्तेन। तेन गजानां दिग्गजानां दन्तानाम् अग्रभागः त्रुटितः भूत्वा तत्र तस्य वक्षसि एव निमग्नः भवति। तादृशाः बहवः दन्ताग्रभागाः यस्य वक्षस्थले निमग्नाः, तादृशं रावणम् आश्चर्येण विस्मयेन दृष्टवान् हनुमान्। पूर्वतनश्लोके पर्वतेन सह उपमा क्रियते, अत्र एव चन्द्रेण सह। क्षम्यतां, मया एव दोषः कृतः। पूर्वतनश्लोके यथा चन्द्रोदयः इन्द्रनीलपर्वतस्य उपरि भवति तथा अस्य मुखम् इति सूचयति। अत्र तस्य वक्षस्थले यथा दिग्गजानां दन्ताग्रभागानां खण्डाः यथा विराजन्ते तथा विराजन्ते यथा समुद्रतले चन्द्रस्य प्रतिबिम्बतया चन्द्रस्य कलाः प्रतितरङ्गं दृश्यते इति अत्र वर्णनम्। अग्रे पश्यामः। पुनः किन्तु तादृशः तपःशीलः अपि पराक्रमी अपि बलवान् अपि रावणः केन सह इदानीं तस्य पुण्यं निरुद्धमस्ति। अन्धकारम् एव अज्ञानम् एव मूर्तरूपम् इव तिष्ठति रावणः हनुमतः पुरतः। तस्य महान् यः अपराधः तेन आचरितः तेन कारणेन मूर्तपापस्य एव मूर्तरूपम् इव दृश्यते हनुमतः पुरतः रावणः इति अत्र वर्णनम्। श्रेयसप्रणयिनीं पदवीं निरोद्धुं त्रैलोक्यपापरिपाकमिवात्तरूपम्। आत्तरूपम् इत्युक्ते स्वीकृतरूपम्। त्रैलोकत्रयस्यापि पापानां मूर्तरूपम् इव स्थितः तत्र रावणः। सूर्येन्दुपावकमहांसि तपोबलेन जित्वा यथेच्छमभिषिक्तमिवान्धकारम्। सः अभिषिक्त अन्धकारः इव दृष्टः इति अत्र वर्णयति। अन्धकारः कीदृशः अन्धकारः इत्युक्ते सूर्यं चन्द्रम् अग्निम् एतान् इत्युक्ते देवान् सर्वान् अपि देवान् जित्वा अभिषिक्तः अन्धकारः इव विराजते इति भावः। इदानीम् अद्यतनं भागं पश्यामः। प्रथमतः कश्चन श्लोकः अस्ति। इतः पूर्वं वयं यद् दृष्टवन्तः तत्र हनुमतः विस्मयः जातः रावणं दृष्ट्वा। यथा यद्यद् रावणविषये श्रुतवान् आसीत् तदपेक्षया अपि अधिकतरः पराक्रमशाली इति भाति स्म रावणः। किन्तु तस्य अपराधकारणेन सः इदानीं तस्य पुरतः विपत्तिः सन्निहिता तस्य समीपे इति अपि आञ्जनेयः द्रष्टुं शक्नोति। रावणः हनुमन्तं कथं पश्यति इति विवरणम् अत्र अहं पठामि, कृपया अनुवदन्तु. सोऽपि प्लवङ्गमम् सोऽपि प्लवङ्गमम् अभिवीक्ष्य समीरपुत्रम्
अभिवीक्ष्य समीरपुत्रम्
चित्रीयमाणहृदयः पिताशनेन्द्रः कैलासशैलचलनागशिशापदायी नन्दीश्वरस्वयमुपागत इत्यमंस्त पूर्वं कदाचित् रावणः कैलासं स्वकराभ्याम् उत्थापितवान् इति वयं दृष्टवन्तः. इदानीं रावणस्य मनसि संशयः उत्पद्यते. कः संशयः इत्युक्ते, तेन पूर्वं शिव परमशिवेन दत्तः शापः स्मृतः. यदा सः कैलासं क्रीडया उत्थापितवान् तदा शिवः तं कुपितः अभवत्. शिवः तस्मै कुप्यति स्म. कुपितं शिवं दृष्ट्वा तेन किं करणीयमासीत्? तस्यैव आराध्यदेवः, तस्य ततः एव तपोबलं तपोबलस्य वरमपि प्राप्तवान्. किन्तु तम् एव देवं सः गर्हितवान्, निन्दितवान्, परिहसितवान्, वानर इति उक्त्वा परिहसितवान्. इदानीं ततोपि कुपितः परमशिवः किं कृतवान्? भोः, यत् मां त्वं वानर इति उक्त्वा सम्बोधयसि तस्य फलम् इदानीं शृणु. अग्रे कदाचित् कश्चन वानरः एव यदा तव पुरतः आगच्छति तदा विपत्तिः शीघ्रमेव आगमिष्यति इति अवगच्छ इति शापं दत्तवान्. तद् स्मरति इदानीं रावणः. अतः स्वयं नन्दीश्वरः शिवः एव वानररूपं धृत्वा साक्षात् अत्र आगतवान् इति रावणमनसि संशयः जातः. पदच्छेदं कृत्वा अर्थं पश्यामः. सः अपि प्लवङ्गं, प्लवगः इति अपि भवति, प्लवङ्गमः इति अपि भवति, प्लवङ्गः इति अपि भवति. अत्र प्लवङ्गं, प्लवङ्गः इति पदं. सः अपि प्लवङ्गम् अभिवीक्ष्य समीरपुत्रं चित्रीयमाणहृदयः पिशिताशनेन्द्रः कैलासशैलचलनागसि शापदायी नन्दीश्वरः स्वयम् उपागतः इति अमंस्त इत्युक्ते अचिन्तयत् इति चिन्तितवान्. एतत् क्रियापदम् अद्यतन लुङ्लकारे भवति. मन् मन्यते इति क्रियापदस्य लट्लकारे मन्यते. अद्यतन लुङ् अमंस्त. कः एवं चिन्तितवान्? कः अमन्यत्? कः चिन्तितवान्? पिशिताशनेन्द्रः इत्युक्ते राक्षसेन्द्रः. पिशितम् अश्नाति इति पिशिताशनः, तेषां नरेशः, तेषां नृपः रावणः. कीदृशः पिशिताशनेन्द्रः सः? सः अपि इति किमर्थम् उक्तम् इत्युक्ते, हनुमान् तं विस्मयापन्नः सन् दृष्टवान्. रावणः अपि हनुमन्तं विस्मयापन्नः सन्, आश्चर्यचकितः सन् दृष्टवान् इति अत्र सः अपि इति पदस्य अर्थः. किं कृत्वा अमंस्त? अभिवीक्ष्य, पुरतः दृष्ट्वा, अक्ष्णोः पुरतः सम्यक् दृष्ट्वा. कम् अभिवीक्ष्य, कं दृष्ट्वा? प्लवङ्गं, हनुमन्तं. कीदृशं प्लवङ्गं? समीरपुत्रं पवनपुत्रं किम् इति अमंस्त कैलासशैलनागसि शापदायी नन्दीश्वरः स्वयम् उपागतः अगः इत्युक्ते पापम् अत्र कैलासशैल इति यः अपराधः जातः तस्मिन् इति अत्र सप्तमी प्रयोगः तस्मिन् पापे शापदायी शिवः स्वयम् अत्र आगतः इति सः चिन्तितवान् कीदृशः सन् अमंस्त चित्रीयमाणहृदयः चित्रीयमाणहृदयः इत्युक्ते विस्मयमानः सन् विस्मितमनाः भूत्वा इति अर्थः अन्वयः पिशिताशवेन्द्रः सः अपि समीरपुत्रम् अभिवीक्ष्य चित्रीयमाणहृदयः सन् इति अध्याहारं कुर्मः कैलासशैलनागसि शापदायी नन्दीश्वरः स्वयम् उपागतः इति अमंस्त अत्र प्रतिपदार्थं पश्यामः पिशिताशनेन्द्रः नाम राक्षसेन्द्रः रावणः सः अपि रावणः अपि समीरपुत्रम् अभिवीक्ष्य पवनपुत्रं दृष्ट्वा हनुमन्तं दृष्ट्वा चित्रीयमाणहृदयः सन् विस्मयमानः सन् विस्मयापन्नः सन् विस्मितमनाः भूत्वा इति अर्थः कैलासशैल नागसि कैलासशैलस्य उत्थापनरूप पापे इति अर्थः शापदायी शापदाता शिवः शापं दत्तवान् इति शापदायी नन्दीश्वरः शिवः स्वयम् अत्र साक्षात् वानरूपं स्वीकृत्य उपागतः समीपम् अत्र पुरतः आगतः इति अमंस्त इति चिन्तितवान् भावार्थः राक्षसाधिपतिः रावणः अपि पवनतनयं पुरतः दृष्ट्वा विस्मितमनाः सन् रावणेन कृते कैलासपर्वतोत्थापनरूपे अपराधे शापदाता शिवः साक्षात् आगतः इति अचिन्तयत् कुत्र शापं दत्तवान् अपराधे कैलासपर्वतस्य उत्थापनरूप अपराधार्थं सः शापं न प्राप्तवान् एकं तु उत्थापनम् एव अपराधः किन्तु यदा शिवः तस्मै कुपितवान् तेन क्षमायाचना करणीया आसीत् तदा कृत्वा पुनः परमशिवं सः निन्दितवान् तिरस्कृतवान् वानर इति उक्त्वा तस्मिन् अपराधे अत्यन्तं कुपितः परमशिवः उक्तवान् इति अत्र विशेषे दत्तमस्ति हनुमन्तं दृष्ट्वा रावणः इत्थम् अचिन्तयत् इति भवति कदाचित् अहं कैलासं स्वकराभ्याम् उत्थापितवान् तेन कुपितं परमशिवम् अहं वानरमुख किं त्वं कुप्यसि इति अभर्त्सये अहं तिरस्कृतवान् तस्मात् नन्दीश्वरः यत् त्वं वानरमुखतया मां तिरस्करोषि तेन वानरेण एव विपत्तिं गमिष्यसि इति मह्यं शापं अददात् तत् स्मरन् इदानीं तं पश्यति रावणः ततः किं भवति यदा तत् प्रसङ्गं सर्वं स्मरन्नपि सः राजा एषः कश्चन दूतः अतः प्रहस्तः इति रावणस्य यः सचिवः भवति सः एतं दूतं पृच्छति कः त्वं कुतः आगतवान् किमर्थम् अत्र आगतवान् इति पृच्छति ततः प्रहस्तेन
ततः प्रहस्तेन
विहितविविधानुयोगः
विधिविधान योगः
प्रत्यभाषत रावणं मारुतिः
प्रत्यभाषत
मारुतिः
मारुतिः
मारुतिः उक्तवान् प्रत्यभाषत प्रत्युत्तरं दत्तवान् प्रत्यवदत् कं प्रत्यभाषत रावणं प्रश्नस्य प्रष्टा प्रहस्तः किन्तु उत्तरं प्रहस्तम् उद्दिश्य एव किल दातव्यं हनुमता साक्षात् रावणम् उद्दिश्य एव उत्तरं ददाति इत्युक्ते सः प्रहस्तं किमपि न मन्यते तस्य उपेक्षां कृत्वा तम् उपेक्ष्य साक्षात् एव रावणेन सह भाषते सम्भाषते हनुमान् इति भावः अत्र ततः प्रहस्तेन विहित विविधायु विविधानुयोगः विहित इत्युक्ते कृत विविध अनेक अनुयोगः इत्युक्ते प्रश्नः अनेकप्रकारकान् प्रश्नान् पृष्टवान् कः त्वं कुतः आयासि किमर्थम् अत्र आगतोऽसि तव अत्र आगमनस्य प्रयोजनं किं किमर्थम् अशोकवनिकाम् एवं प्रवसितवान् इत्यादीन् प्रश्नान् पृष्टवान् इति अर्थः विहितविविधानुयोगः आञ्जनेयः प्रत्यभाषत उक्तवान् रावणं रावणम् उक्तवान् हनुमान् प्रहस्तं तिरस्कुर्वन् साक्षात् रावणमेव सम्बोधितवान् रावणमेव उत्तरम् अवदत् इदानीं कश्चन दीर्घः गद्यभागः अस्ति वस्तुतः यद्यपि दीर्घः अतिदीर्घवाक्यानि सन्ति तथापि सुपरिचितविषयः अत्र अस्ति इति कारणेन अवगमने कोऽपि क्लेशः एव न भवति कः विषयः नाम आञ्जनेयः यदा वदति तदा किं वदति रामकथा एव वदति रामकथा कथनं रामकथा श्रवणम् इति तस्य अभीष्टं कार्यं यत्र यत्र कृत यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिं बाष्पवारि परिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् इति श्लोकं वयं जानीमः सः यत्र यत्र लोके रावण रामकथा भवति तदा सः श्रोता भवति किन्तु रामायणे सुन्दरकाण्डे एव बहुत्र आञ्जनेयः श्रीरामस् अहं रामदूतः इति वदति दूतः इति पदम् एकमेव पदम् आञ्जनेयस्य विषये भवति राम इति पदस्य कृते समस्तपदे अर्धपदस्य कृते एव सः सुदीर्घवाक्यानि वदति अत्रापि कः अहम् इति वदति अहं रामदूतः सः रामः कीदृशः इति वक्तुं साक्षात् रामकथामेव आरभते वक्तुं यथा सीतायाः पुरतः अपि शिंशपावृक्षारूढः साक्षात् रामकथां श्रावितवान् तेन श्रवणेन आश्वस्ता सीतादेवी तं द्रष्टुम् अङ्गीकृतवती अनन्तरं दूतरूपेण तस्य उपस्थितिं तत्र अनुमतवती तेन अग्रे तयोः सम्भाषणं प्रवृत्तम् इति वयं दृष्टवन्तः अत्रापि किं वदति इति पश्यामः अत्र पदच्छेदभागं पश्यन्तः पठामः किञ्चित् सरलतरं स्यात् अयम् अहम्
अयम् अहम्
अहर्पति कुलतिलकस्य अत्र अर्हपति इति अहर्पतिकुलतिलकस्य
सत्यसन्धस्य पितृनियोगसमुपगतवनवासस्य
शूर्पकारातिबाधित
शूर्पकारातिबाधित बाधित शूर्पणखाप्राप्तवैरूप्य
प्रमुखनिशिजरबल
कुप्यत् करप्य प्रमुख खर प्रमुख निशिचर बल
पलाल जाल
पलाल जाल
कल्पांतानल कल्पशिली मुखस्य
कल्पांतानल कल्प शिली मुखस्य
कपट हरिण हनन समय
कपट हरिण हनन समय हनन
समय
दारान्वेषण
परिमुषित
धारान्वेषण
संजात सुग्रीव सख्यस्य
संजात सुग्रीव सख्यस्य
समुत्खात वालिकंटकस्य
समुत्खात वालिकंटकस्य
दुर्वृत्त क्षत्रवंशवन
दुर्वृत्त
क्षत्रवंशवन
पवन सारथे
पवन सारथे
तपोनिधे
तपोनिधे
जामदग्नस्य
भुजबलावलेपलोपहेतोः
भुजबलावलेपलोपहेतोः
श्रीमतः दाशरथेः दूतः अहम्
श्रीमतो
दाशरथेः दूतः अहम्
सीतामार्गमार्गणाय
सीतामार्गमार्गणाय
तपनतनय प्रेषितानां वानराणां
दिशि दिशि तपनतनय
प्रेषितानां वानराणां
एकतमः
एकतमः
समुद्रलङ्घनजङ्घालः
समुद्रलङ्घनजङ्घालः
तव नगरप्रमदवनसीमनि
तव नगरप्रमदवनसीमनि
रघुवरधर्मदारान् प्रणम्य
रघुवरधर्मदारान्
मदीयम् आगमनं प्रकाशीयम्
प्रतिष्ठां सुमदीयम् आगमनानं प्रकाशयितुम्
प्रमथित अशोकवनीका अनोकः निवहः
प्रमथित अशोकवनिका
अनोकः निवहः कुतूहलेन
अनुभूतनैरृतलूतान्तुसमनःस्तव
तव परिसरम् उपासरम्
तव परिसरम् उपासरम्
इदानीं सुदीर्घ गद्यखण्डः अस्माभिः पठितः अत्र अस्माकं सरल अवगमनाय एतानि एव वाक्यानि खण्डशः अत्र प्रस्तूयन्ते एतानि एव वाक्यानि यद् रक्तवर्णे सन्ति तानि वाक्यानि मूल गद्यभागस्य अतः यानि वाक्यानि भावार्थः विग्रहवाक्यानि च इति शीर्षके अधः यानि वाक्यानि दत्तानि तानि वाक्यानि ततः अधः तस्य सरलभावार्थः दत्तः अस्ति ततोपि अधः अहं तत्रैव समस्तपदानां विग्रहवाक्यानि लिखितवती यतः बहु अनन्तरम् अनुच्छेदात् परं लिखामः चेत् पुनः उपरि अधः द्रष्टव्यं स्यात् अतः एव तत्र लिखितवती समस्तपदानि इदानीं न पठामि केवलं भावार्थं पश्यामः अयम् अहम् अयं जनः हे रावण इति तम् उद्दिश्य वदति हनुमान् अयम् अहम् अयम् इत्युक्ते एषः जनः यः तव पुरतः वानररूपेण स्थितः सः अहम् अयम् अहम् प्रहस्तमुखेन त्वया कोऽयम् इति पृष्टः प्रहस्तः पृष्टवान् किल त्वं कः किमर्थमत्र आगतः इति तादृशः अहम् अहर्पतिकुलतिलकस्य अहर्पतिः कः दिवाकरः सूर्यः सूर्यकुलभूषणस्य अहः अहन् शब्दः अहः अहनी अहानि समासे अहन् शब्दः रामशब्दवत् भवति तद् वयं जानीमः अतः एव अहोरात्रम् इति समस्तपदं भवति अहरहरुपासीत इति पदानि वयं शृणुमः अहर्पति कुलतिलकस्य दिवाकरकुलभूषणस्य अग्रे वदति सर्वं यत्र यत्र षष्ठी अस्ति तत्तत् पदं श्रीरामस्य विशेषणपदं कारणम् अहं तस्य दूतः कस्य दूतः अहर्पतिकुलतिलकस्य श्रीरामस्य पुनः कस्य दूतः सत्यसन्धस्य श्रीरामस्य दूतः सत्यसन्धः सत्यनिष्ठः सत्यसन्धस्य अतः एव पितृनियोगसमुपगतवनवासनिरतस्य पितुः आदेशेन अत्र वनवासं कर्तुम् आगतवान् अस्ति वनवासनिरतस्य वनवासे तत्परः पिता यदा उक्तवान् त्वया वनवासः करणीयः तत् झटिति सः पूर्णमनसा अङ्गीकृतवान् अतः तत् कार्ये तत्परः अस्ति सः तत् कार्यं कर्तुं सोद्यमः तिष्ठति झटिति तत् कार्यं कर्तुं सः अङ्गीकरोति अतः वनवासे निरतः सः एवं नास्ति यत् कथञ्चित् चतुर्दशवर्षाणि मया वनवासः करणीयः कथञ्चित् कालः यापनीयः ततः परं राज्यमेव सुखमेव इति न चिन्तयति वनवासे निरतः अस्ति इत्युक्ते मग्नः वनवासे करणीयं तत्र विहितं सर्वं सः कुर्वन् वनवासकालमपि तथैव सुखेन यापयति यथा कश्चन राजा अथवा राजकुमारः राजकीयकार्ये निरतः भवति अतः निरतपदम् इत्यत्र प्रयुक्तम् सत्यप्रतिज्ञः अतः पितुः आज्ञया वनवासम् अङ्गीकृत्य तत्र तत्परः यः अस्ति तादृशस्य श्रीरामस्य अत्र वाक्येषु सरल अर्थमेव अहं दत्तवती अस्मि उपरितन दीर्घसमस्तपदस्य विग्रहवाक्यं ततोपि अधः दत्तं तद् वयम् अस्माकं पुनः अध्ययनसमये द्रष्टुम् अर्हामः द्वितीयवाक्यखण्डः मूलग्रन्थे किमस्ति यद् वाक्यखण्डः पूर्णम् अर्थं बोधयति सः वाक्यखण्डः अत्र चित्वा लिखितः शूर्पकारातिबाधितशूर्पणखा प्राप्तवैरूप्यकुप्यत्खरप्रमुखनिशचरबलपलालजालकल्पान्तानलकल्पशिलीमुखस्य इति एकपदम् एकविशेषणपदम् यस्य बाणः राक्षसान् मारयति स्म तादृशस्य श्रीरामस्य इति वक्तुम् अत्र किं दीर्घपदमस्ति शूर्पकारातिबाधित एतेषां बहूनां सर्वेषां राक्षसानां मारणस्य हेतुः कः एकं तु बहवः राक्षसाः ऋषीणां यज्ञकार्ये विघ्नम् आचरन्ति स्म इति कारणेन बहूनां राक्षसानां मारणं जातं पुनरपि खरदूषणसदृशाः किमर्थं रामं प्रति युद्धं कर्तुम् आगतवान् रामेण सह शूर्पणखा आगता सा यदा तस्याः नासिका कृता तस्याः कर्णौ कृतौ तदा सा धावित्वा भ्रातॄन् गत्वा उक्तवती मम अपमानः जातः भवद्भिः प्रतीकारः करणीयः अतः तया प्रेरिताः एते आगताः तेषामपि मारणं रामबाणेन अभवत् इति अत्र अस्ति शूर्पकारातिबाधित शूर्पकः इति कश्चन असुरः शूर्पकस्य आरातिः इति वयं दृष्टवन्तः अन्धकारातिः अन्धकस्य आरातिः अन्धकारातिः इति शिवस्य नाम तथैव शूर्पकारातिः कः कामदेवः शूर्पकनामक असुरस्य आरातिः शत्रुः कामदेवः निशिचरबलम् इति अत्र पदं पदस्य अर्थः राक्षससैन्यं, बलम् इति सैन्यम् इति अपि भवति. तानि पदानि अहम् इदानीं लिखितवती अस्मि. शूर्पकारातिबाधित कामपीडित शूर्पणखा, रावण भगिनी शूर्पणखा, तया प्राप्तवैरूप्यं, तया विरूपता प्राप्ता. तस्याः लक्ष्मणेन तस्याः नासिका कृत्ता, तस्याः कर्णौ कर्तितौ, अतः सा विरूपतां गता. तादृश प्राप्तवैरूप्यं यया शूर्पणखया प्राप्तवैरूप्यात्, तेन कारणेन सा वैरूप्यं प्राप्तवती इति कारणात् कुप्यत् करप्रमुख निशिचर बलपलालजाल कल्पान्तानलकल्पशिलीमुखस्य इति अस्ति. द्वितीयं लघुपदं पश्यतु, शूर्पकारातिबाधित शूर्पणखा प्राप्तवैरूप्यात् एते कुपिताः. कुप्यत् कुप्यत् इति किमर्थम् अत्र शत्रुप्रत्ययस्य नपुंसकलिङ्गं रूपं दत्तम् इत्युक्ते बलं सैन्यं, कुपितं रावणस्य सैन्यं, कुप्यत् सैन्यं, कुप्यन् सैनिकः, कुप्यन्ती वीराङ्गना, तथा कुप्यत् सैन्यं. के कुपिताः? खरप्रमुख निशिचरबल. खरः आदौ यस्यां सेनायां, यस्मिन् सैन्ये खरः सेनापतिः, तादृशं सैन्यं निशिचरबलं. किम् अभवत् तस्य? दावानलः यथा शुष्कतृणं, वने चिन्तयतु हरिततृणानि सन्ति, तृणेषु उपरि जलबिन्दवः सन्ति, यदि वनाग्निः भवति किं तद् तृणं झटिति दग्धं भवेत्? न भवेत् किल. किन्तु शुष्कतृणं भवति, अतीव उष्णकालः, सर्वत्र तृणमपि शुष्कं, कुत्रापि आर्द्रता, जलमेव नास्ति. तस्मिन् सन्दर्भे किं भवति? तदा अग्निः प्रसरति, दावानलः भवति, तदा शीघ्रमेव सर्वाणि तृणानि क्षणेन एव दग्धानि भवन्ति. तथैव यद्यपि रावणस्य सैनिकाः बहु पराक्रमशालिनः, किन्तु रामबाणस्य पुरतः ते सर्वे दावानलस्य कृते शुष्कतृणगुच्छमिव सन्ति इति वर्णयति. अत्र पदमस्ति पलालजाल, इत्युक्ते शुष्कतृणसमूहः इति अर्थः. पलालम् इत्युक्ते शुष्कतृणं, शुष्कतृणसमूहं, समूहस्य कृते कल्पान्तानलकल्प. कल्प इति पदस्य अर्थद्वयं भवति. एकपदस्य अर्थः अस्ति कल्पः इति कालस्य गणना. द्वितीयपदं कल्पः इति अन्ते अस्ति किल, तस्य अर्थः तुल्यं, सदृशं. तत् कल्पम् इत्युक्ते तत्तुल्यम् इति अर्थः. कल्पान्तानल, कल्पान्त इत्युक्ते प्रलय, प्रलयकाल अग्निः कल्पान्तानलः. अनलः इत्युक्ते अग्निः. किमर्थम् अनल इति नाम अस्ति इत्युक्ते यावत् वा अग्नौ स्थापयतु इन्धनं, तावत् एव अग्निः प्रज्वलितः भूत्वा इतोपि ज्वलति, कदापि पर्याप्तम् इति न भवति. अतः न अलम् इति अनलः इति तस्य नाम. कल्पान्तस्य अग्निः यः अस्ति, कल्पान्त अग्निसदृश इति अर्थः. कः कल्पान्त अग्निसदृशः अस्ति? बाणः, शिलीमुखः इत्युक्ते बाणः. रामस्य बाणः कल्पान् प्रलयाग्निसदृशः अस्ति. केषां कृते? तस्य बाणस्य लक्ष्यम् अत्र कः? एते रावणसैन्यमस्ति. ते कीदृशाः सन्ति इति, यदि रामबाणः प्रलयाग्निसदृशः अस्ति, ते शुष्कतृणम् इव तत् सैन्यमस्ति, इत्युक्ते झटिति एव तद् सः अग्निः शुष्कतृणानि भस्मीकरोति इति भावः. पलालजाल इत्युक्ते शुष्कतृणबन्धः. एवं तादृश हलालजालकल्पान्तानलकल्पशिलीमुखस्य यस्य बाणः एतादृश सैन्यस्य कृते प्रलयाग्निसदृशः अस्ति. कीदृशं सैन्यं तत्? खरप्रमुखैः खरप्रभृतिभिः नीतं सैन्यं. खरप्रभृतयः एव यस्मिन् सैन्ये सेनापतिरूपेण सन्ति. तादृशं सैन्यं, तत् सैन्यं. केन कारणेन तत् सैन्यम् अत्र रावणेन श्रीरामेण योद्धुम् आगतम् इत्युक्ते शूर्पणखया प्रेरितं तत् सैन्यम् अत्र आगतम्. शूर्पणखा किमर्थं तत् सैन्यं प्रेरितवती अत्र युद्धं कर्तुं? सा रामेण च लक्ष्मणेन च अपमानिता आसीत्, तेन कारणेन तत् सैन्यम् आगतं तस्य. तादृशः रामः तस्य रामस्य इति पुनः अत्र षष्ठीप्रयोगेण विशेषणं सूचितम्. अस्तु, इदानीं काः घटनाः उक्ताः श्रीरामविषये? सत्यसन्धः, पितुः आज्ञया वनमागतः, वनवासे निरतः, पुनः वनवासे यदा आगतवान्, वनवासं कर्तुं यदा आगतवान्, राक्षसान् मारितवान्, शूर्पणखया प्रेरितः, खरसदृशाः खरप्रभृतया राक्षसाः अपि मारिताः यस्य बाणेन तादृशस्य रामस्य. तृतीय घटना रामस्य विशेषणं, यदा पुनः एते खरादयः गत्वा रामम् उक्तवन्तः यत् रामः सर्वान् यथा अग्निः शुष्कतृणं भस्मीकरोति तथा सर्वान् राक्षसान् मारयन्नस्ति, तत् श्रुत्वा कुपितः रावणः मारीचं प्रेषयति किल स्वर्ण मायाहरिणरूपेण, तस्य वर्णनम् अत्र अस्ति. कपटहरिणहननसमय परिमुषितदारान्वेषणसञ्जातसुग्रीवसख्यस्य. इदानीं रामस्य कथायाम् अग्रिमघट्टः कः? सुग्रीवसख्यं. सुग्रीवसख्यं केन कारणेन जातम्? पत्न्याः धर्मपत्न्याः अन्वेषणसमये जातं सख्यं. पत्न्याः एतद् अपहरणं, परिमूषणम् इत्युक्ते अपहरणं कदा अभवत्? यदा कश्चन कपटहरिणः तत्र आगतः, तदेव अत्र वर्ण्यते. मायामृगस्य कपटहरिण हननम्, हननम् इत्युक्ते मारणं. कपटहरिणमारणसमये, तत् मारणकाले यदा हरिणः उच्चैः हेल् हा लक्ष्मण हा सीते इति उच्चैः शब्दं कृतवान्, तदा लक्ष्मणेन गन्तव्यम् आपतितं तस्मिन् समये इति अर्थः. कपटहरिणहननसमये परिमुषिता, परिमुषिता इत्युक्ते चोरिता. एक दिव्यस्थलमस्ति श्रीमूष्णम् इति भगवतः विष्णोः, सः अपि चोरः किल, नवनीतचोरः, तथा अत्र चोरितम्. दाराः इति शब्दः नित्यबहुवचन पुल्लिङ्गे भवति, किन्तु परविशेषणम्. अतः परिमुषिताः दाराः, श्रीरामस्य दाराः परिमुषिताः इत्युक्ते श्रीरामस्य पत्नी अपहृता, सीतादेवी अपहृता, तस्याः अन्वेषणे, दारान्वेषणे, तस्याः अन्वेषणे सञ्जात. तस्मिन् समये सञ्जातं, किं सञ्जातं? सुग्रीवसख्यं. यस्य सुग्रीवेण सह सख्यं जातं तादृशस्य रामस्य इति अर्थः. मायामृगस्य मारीचस्य मारणवेलायाम् अपहृतायाः स्वभार्यायाः परिमार्गणसमये यस्य सुग्रीवेण सह मैत्री सञ्जाता तादृशस्य श्रीरामस्य. अग्रिम अग्रे किं भवति? सुग्रीवमैत्री अनन्तरं वालिहननं भवति किल, समुत्खातवालिकण्टकस्य इति पदमस्ति. सुग्रीवस्य राज्यप्राप्तौ कण्टकरूपेण स्थितः आसीत् वालि किल, अतः तत् तस्य मार्गः प्रशस्तः भवेत्. सुग्रीवः पुनः पुनः राज सिंहासने आरोपितव्यः चेत् वालीहननं करणीयं, तद् श्रीरामेण कृतं। सुग्रीवस्य राज्यप्राप्तौ कण्टकरूपेण स्थितः वाली तस्य समुन्मूलनं, तस्य मारणं, विध्वंसनं येन कृतं तादृशस्य श्रीरामस्य। न केवलं तत्, श्रीरामः वालिनः नाम किमर्थम् अत्र आञ्जनेयः वदति इत्युक्ते, यः रावणः देवानपि भाययति स्म, देवाः अपि यस्मात् भीताः, तादृशः रावणः वालितः भयम् अनुभवति इति प्रसङ्गं वयं जानीमः। अतः वालिनः नाम उक्त्वा हनुमान् वदति, यः वाली त्वां भाययति तं वालिनम् अस्माकं श्रीरामः हतवान् अस्ति इति वदति, तस्य मनसि इतोपि भयम् उत्पादयितुम्। अग्रे किं? न केवलं तत्, श्रीरामस्य विवाहानन्तरं परशुरामेण सह साक्षात्कारः भवति किल, तद् वर्ण्यते। परशुरामः परमवीरः, परमपराक्रमशाली। इदानीं सर्वमपि श्रीरामस्य पराक्रमविषये एव वर्ण्यते किल, अतः परशुरामः या परमवीरः नैकान् क्षत्रियान् सह मारितवान्, तं परशुरामम् एव श्रीरामः जितवान् अस्ति इति वक्तुम् अत्र वदति। दुर्वृत्तक्षत्रवंशवनपवनसारथेः तपोनिधेः जामदग्न्यस्य भुजबलावलेपलोपहेतोः इति वदति। परशुरामस्य अवतारस्य कारणं किम्? दुर्वृत्तानां दुराचराणां, दुराचारः येषां क्षत्रियाणाम् अस्ति तेषां, दुर्वृत्ताः क्षत्रियाः। क्षत्रम् इत्युक्ते क्षत्रियकुलम् इति भवति। क्षत्रम् इति पदम् अर्थद्वयं सूचयति, एकं तु क्षत्रियजनः अथवा क्षत्रकुलं, क्षत्रवंशवन वनम् इति वदति कविः। वंशवनम् इत्युक्ते किम्? वंशदण्डाः सन्ति किल, बेम्बू, तद् वनं। क्षत्रवंशवनं क्षत्रियकुलम् इति रूप, वंशवनरूपक्षत्रियकुलं, तस्य वंशवनरूपक्षत्रियकुलस्य कृते एषः अग्निसदृशः कः? परशुरामः। पवनसारथेः वयं जानीमः, अग्निं विना वायुं विना अग्निः न भवति, अतः अग्निं वाहयति। अग्नेः कृते सारथिकार्यं कः करोति? पवनः। अतः पवनः सारथिः यस्य, सः पवनसारथिः अग्निः इति, पवनमित्रः इति बहुत्र वयं पश्यामः एव। पवनसारथेः, पवनसारथिः इति पदम् अत्र अग्निं न सूचयति, परशुरामस्य विशेषणपदम्। किमर्थं परशुरामः अग्निः, अग्नितुल्यः इति उक्तः अत्र? क्षत्रवंशवनं, यत् क्षत्रियरूपवंशकाननं, वंशदण्डकाननम् अस्ति, वनमस्ति, तद् वनस्य नाशाय अग्निरूपेण आगतः परशुरामः। ईदृशाणां क्षत्रियाणां मारणाय? दुर्वृत्तानां, दुराचाराणां क्षत्रियाणां, तादृशस्य परशुरामस्य। तपोनिधेः, तपः एव यस्य निधिः, तपोनिधेः परशुरामस्य, तपोधनस्य परशुरामस्य। कः सः परशुरामः? जामदग्न्यः, जमदग्नेः पुत्रः, जमदग्नेः अपत्यं पुमान् जामदग्न्यः। जमदग्निः इति इकारान्तपुल्लिङ्गशब्दः, तत्र तद्धितप्रत्ययेन, अपत्यार्थे तद्धितप्रत्ययेन जामदग्न्यः इति रामशब्दवत् भवति। तादृशस्य जामदग्न्यस्य, परशुरामस्य। किन्तु परशुरामस्य, परशुरामः स्वस्य पराक्रमविषये बहु गर्वितः आसीत्। भुजबल अवलेपः, अवलेपः इत्युक्ते गर्वः, स्वस्य बाहुबलविषये यः बहु गर्वितः आसीत्, अवलिप्तः आसीत्, तादृश परशुरामस्य भुजबल अवलेपस्य लोपं कृतवान् श्रीरामः. अवलेपस्य लोपम् अत्र अनुप्रास अलङ्कारः अपि अस्ति, अर्थसौन्दर्यमपि अस्ति. भुजबल अवलेपस्य, भुजबल अवलेपः इत्युक्ते भुजबल पराक्रम, स्वस्य पराक्रमे गर्वितः, तस्य गर्वस्य लोपं येन अभवत्, लोपस्य हेतुः आसीत् श्रीरामः, तादृशस्य श्रीरामस्य लोपहेतोः. दुराचाराणां वंशकाननरूपस्य क्षत्रियकुलस्य दावानलः इव अभवत् जमदग्निसुतः तपोधनः परशुरामः. स्वीये बाहुपराक्रमे गर्वितस्य परशुरामस्य गर्वनाशे यः हेतुः तस्य श्रीरामस्य. अग्रे किं वदति श्रीरामविषये हनुमान्? श्रीमतः दाशरथेः दूतः अहम् तादृशस्य श्रीमान्. तादृशः श्रीमान् अस्ति श्रीरामः. श्रीमान् इत्युक्ते सर्वगुणसम्पन्नः, सर्व ऐश्वर्यसम्पन्नः. श्रीमतः दाशरथेः, दशरथपुत्रस्य दूतः अहम्. अस्तु, इदानीम् आगमनस्य हेतुं वदतु. सीतामार्गमार्गणाय, सीता येन मार्गेण गता तस्य मार्गस्य मार्गणाय, अन्वेषणाय, दिशि दिशि सर्वासु दिक्षु तपनतनय प्रेषितानां वानराणाम् एकतमः अहम्. तपनतनयः कः? तपनः नाम सूर्यः. सूर्यपुत्रः अत्र कः? सुग्रीवः. तपनतनयेन बहवः वानराः सर्वासु दिक्षु प्रेषिता सीतायाः अन्वेषणाय. तेषु प्रेषितेषु वानरेषु अहम् अन्यतमः, एकतमः अस्मि. किन्तु अत्र स्वविषये एकं वैशिष्ट्यं वदति. अहं समुद्रलङ्घनजङ्घालः. जङ्घालः इति पदस्य अर्थः अतिवेगवान् इति अर्थः. अहं समुद्रलङ्घने, आकाशमार्गेण समुद्रस्य लङ्घने अतिवेगवान् अस्मि, तादृशः अहं श्रीरामदूतः इति वदति. किं कृतवान् अत्र आगत्य? अहं तव नगरप्रमदवनसीमनि. तव नगरस्य प्रमदावनम् इति अस्ति, इत्युक्ते अशोकवनिका, यत्र राक्षस्यः सर्वाः नियुक्ताः सन्ति सीतायाः रक्षणार्थम्, तादृश अशोकवनिकायाः परिसरे तत्र सीमनी. रघुवरधर्मदारान् प्रणम्य प्रतिष्ठासुः अस्मि. रघुवरस्य, श्रीरामस्य सहधर्मचारिणीं, धर्मपत्नीं, धर्मदारान्, दाराशब्दः नित्य बहुवचनं भवति, अतः यद्यपि एका एव अत्र पत्नी, तथापि दारान् इति बहुवचनशब्दस्य द्वितीया प्रयोगः कृतः. रघुवरधर्मपत्नीं प्रणम्य, नत्वा प्रतिष्ठासुः, प्रस्थातुम् इच्छुः अहम्. इतः मम कार्यं समाप्तं. सीतान्वेषणं कृतं, सीता दृष्टा, रामस्य अभिज्ञानं प्रदत्तं, सीतातः अभिज्ञानं प्राप्तम्. इदानीं गन्तव्यं तेन. किन्तु यद्यपि अहं गमनाय सिद्धः अस्मि, प्रतिष्ठासुः, गमनतत्परः अस्मि, तथापि अत्र अहं किमर्थम् आगतवान् तव सभाम् इत्युक्ते, मदीयम् आगमनं प्रकाशयितुं प्रमथित अशोकवनिका अनोकः निवहः. मम अत्र आगमनम् अहं ज्ञापयितुम् इच्छामि भवतः सर्वान्. भवन्तः यूयं सर्वे जानन्तु यत् अहमत्र आगतः अस्मि इति. तदर्थम् अहं किं कृतवान्? साक्षात् अहं रावणसदृश राक्षसनृपस्य अहं साक्षात्कारं प्राप्तुं न शक्नोमि. अहं सामान्यः कश्चन जनः. अतः अहं किं कृतवान्? अशोकवनिकां भञ्जितवान्, प्रमथितं. प्रमथितम् इत्युक्ते नाशितम्. अशोकवनिकायां स्थितान् वृक्षान् अहं भञ्जितवान्, नाशितवान्. अनोकः इत्युक्ते वृक्षः, अनोकहानां समूहान् एव अहं भञ्जितवान्, तादृशः अहम् अत्र आगतः। अस्तु, पुनः किमर्थं त्वद्दर्शनकुतूहलेन केवलम् अत्र आगतः? यद्यपि अहम् इदानीं वल्कलसूत्रैः बद्धः अस्मि, किन्तु अहं भयात् बद्धः अस्मि, असमर्थतया अहं बद्धः इति मा चिन्तयतु। तव दर्शनकुतूहलेन अहं स्वयम् एतत् बन्धनं स्वीकृतवान् अस्मि इति वदति। त्वद्दर्शनकुतूहलेन केवलं, केवलम् इति पदस्य अर्थः तव दर्श, हे रावण, तव दर्शनकुतूहलेन एव अहम् आगतः अस्मि अत्र, मम असामर्थ्यम् अतः अहं बद्धः इति मा चिन्तयतु। अनुभूत नैरृत नूतातन्तुसं सः वदति, नैरृतलूतातन्तुसंनः संहनः इत्युक्ते, लूता इत्युक्ते एतद् भवति ऊर्णनाभः, स्पैडर् इति वदन्ति किल, कीटविशेषः इति अपि स्वीकर्तुं शक्नुमः। इदानीम् अस्माकं गृहे एव कुत्रापि ऊर्णनाभजालम् अस्ति इति चिन्तयतु, किं तस्य निष्कासने क्लेशः भवति वा? न भवति। सम्मार्जनीं स्वीकृत्य किञ्चित् चालयामः चेत् सा तन्तुः नष्टा भवति। तादृशम् एते राक्षसाः यैः वल्कलसूत्रैः आञ्जनेयं बद्धवन्तः, किम् आञ्जनेयः ताभिः तन्तुभिः आत्मानं विमोचयितुं न जानाति किम्? ताः तन्तवः लूतातन्तुः इव तस्य करे सा तन्तुः तिष्ठति, तत् तन्तुबन्धनं, तत् तन्तोः संहननं, बन्धनं भञ्जयितुं, त्रोटयितुम् आञ्जनेयः जानाति, किन्तु तथापि सः बद्धः तिष्ठति। किम् अनुभोक्तुम् अत्र, किं कर्तुं? रावणदर्शनं कर्तुमेव, रावणं द्रष्टुं। नैरृतलूतातन्तुसंहननम् अहम् अङ्गीकृतवान् अस्मि, स्वयम् अनुभूतवान् अस्मि, मम स्वेच्छया एव अहम् अत्र आगतवान् अस्मि बन्धनं प्राप्य, न तु भवतां प्रभावेण इति सः वदति। अहं तव परिसरम् आगतः अस्मि, अहं तव स्थानं प्रति आगतवान् अस्मि इति आञ्जनेयः स्वस्य विषये वदति, स्वस्य आगमनस्य हेतुं वदति। अहं कः? दूतः अस्मि इति वदति, केवलं स्वस्य विषये एकपदं वदति, अहं समुद्रलङ्घने जङ्घालः, समुद्रलङ्घने अहम् अतिवेगवान् अस्मि इति उक्तवान्। अन्य सर्वविशेषणपदानि अपि श्रीरामस्य विषये वदति। एतद् वयम् एकैकमपि वाक्यं मन्दं पठन्तः एतस्य अर्थम् अवगन्तुं, विवरणम् अवगन्तुं प्रयत्नं कुर्मः। अत्र वयम् अद्य समापयामः, अग्रिमसप्ताहे पुनः गुरुवासरे मेलिष्यामः। नमस्ते, शुभरात्रिः।